कुवाच एवं व्यवसितो बुद्ध्या समाधाय मनोहृदि यजाप परमं जाप्यं प्राग्जन्मन्यशिक्षितं गजेन्द्र उवाच ॐ नमो भगवते तस्मै यदेतच्चिदात्मकं पुरुषायादि बीजाय परेशायापि धीमहि यस्मिन् इदं यतश्चेदं येनेदं य इदं स्वयं योऽस्मात् परस्माच्च परस्थं प्रपद्ये स्वयं भुवं यस्वात्मनीदं निजमायार्पितं क्वयद्विवादं क्व दत्तिरोहितम् अमित्तदृक्साक्षिभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परा कालेन पञ्चत्वमितेषु कृष्णशो लोकेषु पालेषु च सर्वहेतुषु तमस्तदासीत् गहनं गभीरं यस्तस्य पारेऽपि विराजते विभुस्य देवा ऋषयः पदं विदुर्जन्तु पुनर्पोर्हति गन्तुमीरितुं यथा नटस्या कृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः समावतु ऋतिरुक्षरो यस्य पदं सुमङ्गलं विमुक्तसङ्गामुनयः सुसाधवः चलन्त लोकप्रथमं प्रलम्बने भूतात्मभूतासु यतः स मे गतिः न विद्यते यस्य च जन्म कर्म वा न नाम रूपे गुणदोष एव वा तथापि लोकाभ्ययसम्भवाय समाय जातान्यनुका तस्मै नमः परेशाय ब्रह्मणे नन्दशक्तये अरूपायोऽनुरूपाय नमः आश्चर्यकर्मणे नमः आत्मप्रदीपाय साक्षिणे परमात्मने नमो गिरां विदूराय मनसश्चेतसामपि सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता नमः कैवल्यनाथाय निर्वाणसुखसंविदे नमः शान्ताय घोराय मूढाय गुणधर्मिणे निर्विशेषाय साम्याय नमो ज्ञानघनाय च क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे पुरुषायात्ममूलाय मूलप्रकृतये नमः सर्वेन्द्रियगुणद्रष्टे सर्वप्रत्ययहेतवे असदाच्छायोक्ताय सदाभासाय ते नमः नमो नमस्ते किल कारणाय निष्कारणायाद्भुतकारणाय सर्वागमाम्नाय महार्णवाय नमोपवर्गाय परायणाय गुणार्णिच्छन्नचिदूष्मपाय तत्क्षोभविस्फूर्जितमानसाय नैष्कर्म्यभावेन विवर्जितागम स्वयं प्रकाशाय नमस्करोमि मार्यक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोलयाय स्वांशेन सर्वतनुब्रह्मणसि प्रतीक प्रत्यग्निषे भगवते बृहते नमस्ते आत्मात्मजाप्तगृहवित्तजनेषु सक्ते दुष्प्रापणाय गुणसङ्गविवर्जिताय मुक्तात्मनिस्मृतये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टाङ्गतिमाप्नुवन्ति किं वा शिशोरात्यपि देहमव्ययं करोतु मेदभ्रदयो विमोक्षणम् एकान्तिनो यस्य न कश्चनार्थं वाञ्छनीयैवै भगवत्प्रपन्नाः अद्यद्भुतं तच्चरितं समङ्गलं गायन्त आनन्दसमुद्रमग्नाः तमक्षरं ब्रह्मपरं परेशामव्यक्तमाध्यात्मिकयोगगम्यम् अतीन्द्रियं सूक्ष्मविवादिदूरानन्दमाद्यं परिपूर्णमीडे यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः नामरूपभेदेन फल्व्या चलया कृताः यथा त्रिशोणे सवितुर्गभस्त्यो निल्यान्यसंवृत्सरोचिषः तथा यतोऽयं गुणसंप्रवाहो बुद्धिर्मनः कानि शरीरसरगाः सवै न देवासुरमर्त्यतिर्यं न स्त्री न षण्डो न पुमान् न जन्तुः नायं गुणः कर्म न सन्न चासन्निषेधशेषो जयता दशेषः जिजीविषेणाहमिहामुया किमन्तर्भिश्चावतरेभयोन्या इच्छामि कालेन नयस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम् सोऽहं विश्वसृजं विश्वामविश्वं विश्ववेदसं विश्वात्मानवजं ब्रह्मा प्रणतोऽस्मि परं पदं योगरन्धितकर्माणो हृदियोगविभाविते योगिनोऽयं प्रपश्यन्ति योगेशं तन्नतोऽस्म्यहम् नमो नमस्तोभ्यमसह्य वेगा शक्तित्रयाखिलधिगुणाय प्रपन्नबालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने नायं वेदस्वमात्मानं यच्छक्त्याहन्धियाहतं त्वं दुरद्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् ॐ